नमः सर्वेभ्यः। अद्य कोविदवर्गस्य चतुर्विंशः पाठः, जुलै मासस्य षष्ठः दिनाङ्कः। गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मिनमो गुरवे। न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये, जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ। महाकवेः कालिदासस्य रघुवंशाख्ये महाकाव्ये नन्दिनीवरप्रदानम् इत्येषः द्वितीयः सर्गः अस्माभिः अधीयमानः अस्ति। तत्र केचन श्लोकाः दृष्टाः, श्लोकान् एकवारं पठामः। अथ प्रजानामधिपः प्रभाते, जाया प्रतिग्राहितगन्धमाल्यां, वनाय पीतप्रतिबद्धवत्सां, यशोधनो धेनुमृषेर्मुमोच। तस्याः खुरन्यासपवित्रपांसुम् अपांसुलानान्धुरिकीर्तनीया, मार्गं मनुष्येश्वरधर्मपत्नी, श्रुतेरिवार्थं स्मृतिरन्वगच्छत्। आस्वादवद्भिः कवलैस्तृणानां, कण्डूयनैर्दंशनिवारणैश्च, अव्याहतैस्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत्। मरुत्प्रयुक्ताश्च मरुत्सखाभम्, तमत्यमारादभिवर्तमानम्, अवाकिरन् बाललताः प्रसूनैः, आचारलाजैरिव पौरकन्याः। दिलीपः सन्तानार्थं कामधेन्वाः पुत्र्याः नन्दिन्याः सेवां कर्तुम् आरभते। तां वनं नयति, तत्र तृणानि दत्त्वा दंशनिवारणं कृत्वा तस्याः इच्छानुगुणं सर्वत्र अटितुं तां विमुच्य तस्याः सेवायां निरतः भवति। तत्र वने यदा सः दिलीपः गच्छति, तत्र बाललताः पुष्पैः तम् अवर्षन्, यथा नगरे कन्याः लाजैः महाराजम् अर्चयन्ति, एवं वायुना प्रेरिताः बाललताः, एषः वायोः सखा अग्निसदृशः आसीत्, अतः आगतस्य मित्रस्य स्वागतार्थं वायुना प्रेरिताः लताः पुष्पैः तम् अवर्षन् इत्येषः श्लोकः गतवर्गे अस्माभिः दृष्टः। ततः अग्रे बहवः श्लोकाः न निर्दिष्टाः सन्ति पाठ्यक्रमे। दशमः श्लोकः दृष्टः, ततः पञ्चविंशः श्लोकः एव अस्ति। तन्मध्ये दिलीपस्य वर्णनमस्ति, वनस्य वर्णनमस्ति, बहु सुन्दराः श्लोकाः। सः वनस्य वर्णनं करोति कालिदासः, नन्दिन्याः वर्णनमपि अस्ति। तत्र वस्तुतः द्वित्राः श्लोकाः अत्यन्तं प्रसिद्धाः सन्ति। दिनक्षपा मध्यगतेव सन्ध्या इति कालिदासः नन्दिनीं वर्णयति। यदा रात्रौ सायंकाले वनात् धेनुः राजा च प्रत्यागच्छतः, तदा सुदक्षिणा स्वागतं करोति। तदा सुदक्षिणायाः दिलीपस्य मध्ये नन्दिनी आसीत्। दिनक्षपा मध्यगतेव सन्ध्या इति कालिदासः वर्णयति। दिनं नाम प्रातःकालः, क्षपा इत्युक्ते रात्रिः। प्रातः रात्रिः अनयोः मध्ये सन्ध्याकालः भवति। एवं नन्दिनी आसीत् सुदक्षिणा दिलीपयोः मध्यगता इति। पुनश्च शृङ्गान्तरं द्वारमिवार्थसिद्धेः इति, सुदक्षिणा नन्दिनीं पूजयति। तत्र धेन्वाः शृङ्गद्वयं भवति, मध्ये ललाटप्रदेशः, तत्र कुङ्कुमादिकं स्थापयित्वा ताम् अर्चयति सुदक्षिणा। तत्र शृङ्गान्तरं द्वारम् इव अर्थसिद्धेः, तत् कालिदासः वर्णयति द्वारम् इव। सो द टु हार्न्स् दे लुक् लैक् द डोर्स्। द डोर्स् टु वाट्? अर्थसिद्धेः। तयोः सुदक्षिणादिलीपयोः या प्रार्थना आसीत् सन्तानं సంతాన ప్రాప్తిః ఇతి తస్య సిద్ధేః ద్వారం ఇవ తశృంగయోః మధ్యం సా పూజితవతీ ఇతి. ఇత్యేవం బహువిధ ప్రసిద్ధాః శ్లోకాః సంతి. ప్రసాద చిహ్నాని పురఃఫలాని. సా నందిని వనాద్ ఆగతవతీ అస్తి. వత్సః ద్రష్టవ్యః ఇతి తస్యాః ఔత్సుక్యం. షీ ఈజ్ వెరీ ఈగర్ టు మీట్ హర్ కాఫ్. తథాపి సా బహు సహనయా స్థిత్వా సుదక్షిణాయాః పూజాం స్వీకరోతి. సో షీ పేషెంట్లీ రిసీవ్స్ ఆల్ ద వర్షిప్ ఆఫ్ సుదక్షిణ. తత్ర కవి వదతి ప్రసాద చిహ్నాని పురఃఫలాని. తస్యాః ప్రసాదః అనుగ్రహః అగ్రే ఉత్తమ ఫలం లభ్యతే ఇత్యస్య సూచకమాసీత్ ఇత్యేవం వర్ణనం కరోతి. అంతిమః శ్లోకః తత్ర 24th శ్లోకః. తామంతి కన్యస్తబలి ప్రదీపాం అన్వాస్య గోప్తా గృహిణీ సహాయః క్రమేణ సుప్తామను సంవివేశ సుప్తోత్థితాం ప్రాతరనూదతిష్ఠత్. కేవలం వనాత్ ప్రత్యాగత్య మమ కార్యం సమాప్తం ఇతి దిలీపః న ఉపవిష్టః. అస్తు కిం కర్తవ్యం, వనే ధేన్వాః రక్షణం కృతం, ఇదానీం కించిద్ విశ్రాంతిం స్వీకుర్మః అథవా కుత్రాపి గత్వా కిమపి కరోమి ఇతి దిలీపః న చింతితవాన్. రాత్రౌ అపి తాం అంతికన్యస్త బలి ప్రదీపాం, ధేన్వాః సమీపే కించిద్ బలిః. రాత్రౌ బుభుక్షా భవతి చేత్ తస్యాః భోజనార్థం కించిత్ ప్రదీపః కశ్చిద్ దీపః. రాత్రౌ అంధకారః భవతి కశ్చిద్ దీపః. ఏతత్ స్థాపయిత్వా అన్వాస్య, యదా నందిని గోష్ఠం గత్వా ఉపవిష్టా తత్రైవ గత్వా దిలీపః అపి ఉపవిష్టవాన్. తస్యాః ఇతోపి తస్యాః కిమపి ఇచ్ఛా భవేద్వా ఆవశ్యకత భవేద్వా ఇతి ప్రతీక్షమాణః గృహిణీ సహాయః పత్న్యా సహ ఉపవిష్టవాన్. క్రమేణ సుప్తాం అను సంవివేశ, సా ధేనుః ఆదౌ కించిత్ కాలం ఉపవిష్టవతి అనంతరం మందం శయనం కృతవతి. షీ వెన్ షీ లైట్ డౌన్ తదా అను సంవివేశ. ఆఫ్టర్ దట్ హీ ఆల్సో లైట్ డౌన్ ఫార్ స్లీప్. సుప్తోత్థితాం ప్రాతరనూద తిష్ఠత్. ప్రాతః యదా నందిని సుప్త్వా ఉత్థితా ఝటితి దిలీపః అపి ఉత్థితవాన్. ఏవం 24/7 ఏవం క్రమేణ సహ దిలీపః నందిన్యాః సేవాం కృతవాన్ ఇతి వర్ణయతి. అగ్రిమః శ్లోకః. ఇత్థం వ్రతం ధారయతః ప్రజార్థం సమం మహిష్యా మహనీయ కీర్తేః సప్తవ్యతీయుస్త్రిగుణాని తస్య దినాని దీనోద్ధరణోచితస్య. కోపి అనువక్తుమిచ్చతి? సుధా భగిని.
ఇత్థం వ్రతం ధారయతః ప్రజార్థం. ఇత్థం వ్రతం ధారయతః ప్రజార్థం
సమం మహిష్యా మహనీయ కీర్తేః.
సమం మహిష్యా మహనీయ కీర్తేః.
సప్తవ్యతీయుస్త్రిగుణాని తస్య.
సప్తవ్యతీయుస్త్రిగుణాని తస్య.
దినాని దీనోద్ధరణోచితస్య.
దినాని దీనోద్ధరణోచితస్య.
ఇత్థం వ్రతం ధారయతః ప్రజార్థం.
ఇత్థం వ్రతం ధారయతః ప్రజార్థం
సమం మహనీయ కీర్తేః.
సప్తవ్యతీయుస్త్రిగుణాని తస్య దినాని దీనోద్ధరణోచితస్య.
ఇత్థం
వ్రతం ధారయతః ప్రజార్థం उत्तमं महिष्या महनीयकीर्तेः सप्त व्यतियुः
व्यतियुः
व्यतियुः त्रिगुणानि तस्य दिनानि तीनः
दीन
इट्स टुगेदर
नो या इट्स अ सिंगल वर्ड दीन
दीनोद्धरणोचित्तस्य
दीन
उद्धरण
उचितस्य
उचितस्य
इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीय कीर्तेः सप्त व्यतीयुः त्रिगुणानि तस्य दिनानि दीन उद्धरण उचितस्य
संधि व्यतीयुः इज द क्रियापदम ओवर हियर
संधि संधि
संधि इत्थं व्रतम आर ऑल अनुस्वर संधि प्रजार्थम समम ऑल ऑफ इट इज अनुस्वर संधि व्यतीयुः त्रिगुणानि इस विसर्ग संधि सकारांत सकारादेश देन दीन उद्धर इट्स एक्चुअली अ समास
there is a sandhi
there is a sandhi that is dinah and uddarah so dinodharah that is dinodharah that is guna sandhi
guna sandhi dina uddharana uchita both of them is guna sandhi
both of them are guna sandhi
so ittham vratam dharayatah prajartham samam सर्वत्रापि अनुस्वारसन्धिः मकारस्य अनुस्वारः व्यतीयुः त्रिगुणानि इत्यत्र विसर्गस्य सकारः दीन उद्धरण उचितस्य गुणसन्धिः इत्थं रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्तेः सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य धन्यवादाः सामान्यार्थः कः इति चेत् इत्थम् एवं व्रतं धारयतः प्रजार्थं सन्तानप्राप्त्यर्थं दिलीपः एतादृशं व्रतम् इत्युक्ते आप्रातः आरात्रं यद्व्रतं कृतवान् तत्र त्रिगुणानि सप्तदिनानि सप्तदिनानि सेवेन् डेस् त्रिगुणानि मल्टिप्लैड् बै त्री दट् इस् 21 डेस् सो एकविंशतिदिनानि यावत् दिलीपः एतादृशं व्रतं कृतवान् नन्दिन्याः सेवां कृतवान् इत्यर्थः सो एकविंशतिं दिनानि यावत् दिलीपः सुदक्षिणया सह महिष्या समम् नन्दिन्याः परिचर्यारूपं व्रतं निरूढवान् इति श्लोकस्य सामान्यः अर्थः अग्रे विभक्तिः किं क्रियापदं का विभक्तिः इति पश्यामः भगिनि वदति वा
व्यतीयुः इस् द क्रियापदं
क्रियापदं व्यतीयुः इति
देन् प्रथमा विभक्ति इत्थम् इस् अव्यय व्रतम् समम्
व्रतम् इस् द्वितीया
दिनानि
दिनानि
त्रिगुणानि दिनानि सप्त
सप्त सो सप्त त्रिगुणानि दिनानि इति प्रथमा विभक्तिः
द्वितीया विभक्ति व्रतं प्रजार्थं व्रतं प्रजार्थं
तावदेव व्रतं प्रजार्थम् इति द्वितीया विभक्तिः
तृतीया विभक्ति महिष्या
महिष्या इति तृतीया विभक्तिः.
चतुर्थी इस प्रजार्थम.
नो, तत्र विभक्ति इस द्वितीया. आई हैव ऑलरेडी सीन प्रजार्थम इस द्वितीया.
पंचमी इस धारयतः महनीय कीर्ति.
दैट इज ऑल षष्ठी.
षष्ठी.
देयर इज नो पंचमी. षष्ठी.
षष्ठी धारयतः महनीय कीर्तेः तस्य दीनोद्धरणोचितस्य.
धारयतः महनीय कीर्तेः तस्य दीनोद्धरणोचितस्य इति षष्ठी विभक्तिः.
षष्ठी विभक्ति.
अव्ययम्.
अव्ययम् इस् इत्थम्.
समम् इत्थम् अण्ड् समम् इति अव्ययम्. इत्थं समम् इति अव्ययं. सम्यक् अन्वयं करोति वा?
प्रयत्नं करिष्यामि.
करोतु करोतु.
अन्वय विल् बि व्यतियुः. सप्त त्रिगुणानि दिनानि व्यतियुः.
कानि व्यतीयुः?
कानि व्यतीयुः? दिनानि.
दिनानि व्यतीयुः. कति दिनानि?
सप्त त्रिगुणि
त्रिगुणानि
दिनानि. सप्त त्रिगुणानि त्रिगुणानि
दिनानि
व्यतीयुः. देन् कस्य
कस्य दिनानि? कस्य दिनानि?
कीदृश तस्य दीनोद्धरणोचितस्य तस्य.
वाट् एल्स् इस् देर् इन् षष्ठी? पुनः कीदृशस्य?
महनीयकीर्तेः.
महनीयकीर्तेः तस्य.
तस्य
पुनः कीदृशस्य?
धारयतः.
धारयतः. किं धारयतः?
व्रतं धारयतः.
किमर्थं व्रतं धारयतः?
प्रजार्थं.
प्रजार्थं व्रतं धारयतः.
पुत्रार्थं.
केन सह?
केन सह? महिष्या.
महिष्या समं धारयतः.
धारयतः.
कथं धारयतः?
प्रजार्थं.
कथं?
कथं? कथं?
इत्थम्.
इत्थम्? इत्थं
पूर्वमुक्तवान् तत् इत्थम्.
इत्थं महिष्या समं प्रजार्थं महनीयकीर्तेः व्रतं.
न प्रजार्थं व्रतं धारयतः.
धारयतः महनीयकीर्तेः सप्त
दीनोद्धरणोचितस्य
तस्य सप्त त्रिगुणानि दिनानि व्यतीयुः.
सम्यक् उत्तमम्. व्यतीयुः. व्यतीयुः गतानि. दे वेंट बै इत्यर्थः. व्यतीयुः कानि? व्यतीयुः दिनानि. दिवसानि व्यतीयुः. डेस् वेंट बै. कति दिनानि व्यतीयुः? त्रिगुणानि सप्त. गुण इस् टु मल्टिप्लै. सप्त दिनानि मल्टिप्लैड् बै त्रि. अतः एकविंशतिः दिवसानि गतानि. कस्य दिनानि व्यतीयुः? तस्य दिलीपस्य. कीदृशस्य दिलीपस्य? धारयतः पालयतः. हि हु वाज़् होल्डिङ्ग् फास्ट्. किं धारयतः? व्रतं धारयतः. व्रतं नियमः इत्यर्थः. सो हि हु वाज़् होल्डिङ्ग् फास्ट् टु द व्रत टु द आल् द rigorous rules which he had imposed upon himself for serving Nandini. कथं व्रतं धारयतः इत्थं. पूर्वं कालिदासः सर्वं वर्णितवान् किम् आस्वादवद्भिः कवलैः इत्यादि. अनन्तरं सा यदा उपविशति तदा उपविशति, यदा सा जलं पिबति तदा एव पिबति इत्येवं पूर्वोक्तप्रकारेण नियमं पालयतः दिलीपस्य एकविंशतिः दिनानि गतानि. किमर्थं व्रतं धारयतः? प्रजार्थं, प्रजा सन्तानं, सन्तानप्राप्तये नियमं सः पालयति स्म. कया समं? महिष्या समं. महिषी, राजमहिषी, पत्नी, पत्न्या सुदक्षिणया सह. सः केवलम् एकाकी न कृतवान्, पत्न्या सह एतादृशं नियमम् आचरतः. तस्य एकविंशतिः दिनानि गतानि. तत्र दिलीपस्य पुनः विशेषणद्वयं ददाति कालिदासः. पुनः कीदृशस्य तस्य? महनीयकीर्तेः. महनीया कीर्तिः, कीर्तिः हूस् फेम् वास् वेनरेटेड्, वेनरबल्. सर्वेषु विषयेषु महती कीर्तिः आसीत् दिलीपस्य. पुनः कीदृशः सः? दीनोद्धरणोऽसि तस्य. दीनानाम् उद्धरणे उचितः. सो दीनाः ये कष्टे सन्ति तेषाम् उद्धरणे, कष्टनिवारणे सः उचितः. उचितशब्दस्य बहवः अर्थाः सन्ति. इन् दिस् काण्टेक्स्ट् इट् मीन्स् ही हू वाज् नोन् फार् अप्लिफ्टिङ्ग् द मिसरबल्. सो ये ये दीनाः कष्टे आसन् तेषां कष्टनिवारणे अत्यन्तं प्रसिद्धः, विदितः आसीत् दिलीपः. तादृशः इदानीं स्वस्य कष्टस्य निवारणार्थं पुनः कीर्तिलाभाय च एतादृशं व्रतं धारयति स्म इत्यर्थः. अत्र धारयतः, तत्र ध्रियते इत्यस्य निजन्तः. सो ध्रियते इस् दट् विच् सस्टेन्स्, दट् विच् इस् होल्डिङ्ग् फास्ट् इस् ध्रियते. So to make it stay steady, so to hold the vrata steady without any deviation ityarthah. Dharayati iti padam bahushu artheshu upayujyate. If you take dharati to wear, then dharayati can be to make somebody to wear. Dharayati is also used to mean to owe somebody something. Shatam dharayati means I owe somebody 100 rupees इत्यादि अर्थेषु अस्ति. अत्र तु व्रतं धारयति इत्यत्र सः अर्थः. ही हू इस् होल्डिङ्ग् फास्ट् टु द व्रत, दट् इस् फालोयिङ्ग् इट् वेरि सिन्सियर्लि इत्यर्थः. कः अन्वयः? इत्थं प्रजार्थं महिष्यासमं व्रतं धारयतः महनीयकीर्तेः दीनोद्धरणोचितस्य तस्य त्रिगुणानि सप्तदिनानि व्यतीयुः. दस् दट् इस् इन् द मेनर् विच् वास् डिस्क्रैब्ड्. प्रजार्थं फार् बि गेटिङ्ग् प्रोजिनी, महिष्यासमं अलाङ्ग् वित् हिस् वैफ् सुदक्षिणा, व्रतं धारयतः ही हू वास् मेण्टेनिङ्ग् द वो आर् द व्रत, महनीयकीर्तेः ही हू पोसेस्ड् ग्रेट् फेम्, दीनोद्धरणोऽसि तस्य who was known for removing the afflictions of the miserable. So tadrishasya dilipasya trigunani sapta dinani, 3 times 7 days, 21 days vyatiyuhu went by. Santana praptaye patnya sudakshinaya saha purvokta prakarena niyamam palayataha pujya yashasaha dinanam दैन्यविमोचने विदितस्य दिलीपस्य एकविंशतिः दिनानि गतानि. ऐ रिपीट् दिस् भावार्थ इस् नथिङ्ग् बट् द पदपदार्थ पुट् टुगेदर्. ऐ वाण्ट् टु एम्फसैज् दट् इफ् यु डू द पदपदार्थ करेक्ट्लि देन् द फैनल् भावार्थ यु केन् आटोमेटिकलि गेट् बै जस्ट् पुटिङ्ग् टुगेदर् दोस् वर्ड्स्. प्लीस् प्राक्टिस् दट्, इट् इस् वेरि यूस्फुल् इन् creating your own sentences easily. Okay, so writing a long sentence, especially such with such complicated things, you will go wrong in vibhaktis. So try to do the pada padartha and then put together the same thing for the bhavartha. That is why I usually don't deviate in the bhavartha. Even though you can put the same thing in multiple ways, you can break down the sentences and all that is possible, but this is one way of getting to correct sentences. Just do it word wise and then put it together correctly. Dharayatah, is it Shastranta Shashti Vibhakti? Am Idani Magre Vyakarana Bhage Pashyamaha Ye Vaktumichanti Kripaya Hastamunnayanto Itham. सुजाता भगिनी न श्रूयते स्लाइटली लाउडर प्लीज
इत्थम अव्ययम्
इत्थम इति अव्ययम् सम्यक् व्रतम्
व्यतः व्रतम् अकारान्तक नपुंसकलिङ्गः द्वितीया विभक्ति एकवचनम्
सम्यक् अकारान्तः पुल्लिङ्गे अपि अस्ति व्रतः व्रतम् उभयमपि अस्ति पुल्लिङ्गे अथवा नपुंसकलिङ्गे द्वितीया विभक्तिः एकवचनम् तत्र अमरकोशे नियमः व्रतम् अस्त्री इत्यस्ति नियमः इति पुल्लिङ्गे व्रतम् इति स्त्रीलिङ्गे न अर्थात् पुल्लिङ्गे व्रतः इत्यपि अस्ति नपुंसकलिङ्गे व्रतम् इत्यपि अस्ति द्वितीया विभक्तौ एकवचनम् धारयतः
धारयतः अकारान्तः
धारयत्
धारयत् तकारान्तः पुल्लिङ्गः षष्ठी विभक्ति एकवचनम्
सम्यक् तकारान्तः पुल्लिङ्गः षष्ठी विभक्तिः एकवचनम् धारयत् इति कीदृशं पदम् शत्रन्तं सत्यं धारयति इत्यत्र धृ धातोः णिजन्तः अस्ति तस्मात् शत्रु प्रत्ययः धारयत् धारयन् धारयन्तौ धारयन्तः तत्र षष्ठी विभक्तौ एकवचने धारयतः इति कृदन्तशब्दः तत्र ध्रियते इत्यस्य दृढं भवति to sustain इत्यर्थः तस्य निजन्ते धारयति दृढं भवितुं प्रेरयति to make something to sustain to hold fast इत्यर्थः अग्रे प्रजार्थम् राव महोदय you have done mute yourself न श्रूयते यू आर म्यूटेड आई थिंक यू टू अनम्यूट योर सेल्फ राधा भगिनी
प्रजार्थम् अकारान्तः प्रजार्थशब्दः नपुंसकलिङ्गं प्रजार्थशब्दः द्वितीया विभक्ति एकवचनम्
अकारान्तः नपुंसकलिङ्गः द्वितीया विभक्तिः प्रजार्थशब्दः एकवचनम् इदं क्रियाविशेषणं प्रजार्थं धारयति कः समासः अत्र
प्रजा सन्तान सन्तानार्थं
का विभक्तिः द्वितीयः फार् इत्यर्थे कः का विभक्तिः भवति
चतुर्थी विभक्ति
चतुर्थी हा प्रजायै इदम् इति चतुर्थी तत्पुरुषः.
तत्पुरुषः
चतुर्थी तत्पुरुषसमासे दृष्टम् अर्थशब्देन सह समासः भवति. प्रजायै इदं प्रजार्थम् तत्र वस्तुतः लिङ्गत्रये प्रयोगः कर्तुं शक्यते. प्रजार्थः, प्रजार्था, प्रजार्थम् इति लिङ्गत्रये भवति. यदा तु क्रियाविशेषणत्वेन उपयुज्यते तदा नपुंसकलिङ्गं द्वितीया विभक्तिः भवति इति समासवर्गे दृष्टवन्तः, स्मरन्तु. सो वेन् दिस् प्रजार्थ इट् केन् बि यूस्ड् एस् से प्रजार्थः व्रतः, प्रजार्था सम्थिङ्ग् एट्सेट्रा. किन्तु सामान्यतः क्रियाविशेषणार्थत्वेन यदा उपयुज्यते तदा नपुंसकलिङ्गे द्वितीया विभक्तौ भवति. अत्र उभयथापि वक्तुं शक्यते. प्रजार्थं व्रतम् इति व्रतशब्दस्य विशेषणत्वेन अपि स्वीकर्तुं शक्यते. प्रजार्थं धारयतः इत्यपि स्वीकर्तुं शक्यते. उभयथापि तत्र द्वितीया विभक्तिः एकवचनान्तमेव भवति. प्रजायै इदं प्रजार्थम् इति चतुर्थी तत्पुरुषः. अव्ययत्वं तु नास्ति अस्य पदस्य. इट् इस् नाट् एन् अव्यय, बट् एस् अ क्रियाविशेषण इट् इस् आल्वेस् यूस्ड् एस् प्रजार्थम्. दट् इस् द द्वितीया विभक्ति. सो इट् सौण्ड्स् लैक् इट् डजन्ट् चेञ्ज्. प्रजा स्यात् सन्ततौ जने इति अमरकोशे अस्ति. प्रथमश्लोके एव दृष्टवन्तः. अथ प्रजानाम् अधिपः प्रभाते. तत्र प्रजाशब्दस्य जनाः इत्यर्थः, जनाधिपः इति. अत्र तु प्रजा इत्यस्य सन्ततिः इत्यर्थः. समम् राधा भगिनी, यु केन् कण्टिन्यू.
समम् अव्ययम्,
समम् इति अव्ययम्. तत्र चत्वारि पञ्च अव्ययानि सन्ति. सः, साकं, सार्धं, समं, सत्रा इति पञ्च अपि अव्ययानि समानार्थकानि. आल् आफ् देम् मीन् वित्. सो सः, साकं, सार्धं, समं, सत्रा इत्यपि अस्ति, बहुधा नोपयुज्यते. दीस् फोर् आर् प्रेटि पाप्युलर्लि यूस्ड्. सो नेक्स्ट् महिष्या. क्षम्यताम्, महिष्या.
महिषी शब्दः इकारान्तः, महिषी शब्दः स्त्रीलिङ्गः, महिषी शब्दः तृतीया विभक्ति एकवचनम्.
सम्यक्, ईकारान्तः स्त्रीलिङ्गः तृतीया विभक्तौ एकवचनम्. उत्तमम्. तत्र महिषी इत्यस्य कृताभिषेका महिषी इति अमरकोशे अस्ति. राज्ञः बह्व्यः भार्याः भवन्ति, किन्तु पट्टाभिषिक्ता या भवति सा एव महिषी. सो द चीफ् क्वीन् हू टेक्स् पार्ट् इन् आल् रिचुवल् स्टार्टिङ्ग् फ्रम् द कोरोनेशन्, शी इस् द महिषी. एतत्तु सर्वैः ज्ञायते. समं, साकं, सार्धं, सहार्थाः ये शब्दाः तैः योगे तृतीया विभक्तिः भवति. वि यूस् तृतीया विभक्ति इन् असोसियेशन् नाट् ओन्लि आफ् सः बट् आल्सो आल् सिनोनिम्स्. सो आल् दोस् अव्ययस् इन् असोसियेशन् वित् देम् वि यूस् तृतीया विभक्ति. सो इज़न्ट् महिषी आल्सो ए फीमेल् बफेलो? अस्ति, महिषः इत्यस्य स्त्रीलिङ्गे महिषी इत्यर्थः भवति. अत्र तु सः अर्थः न विवक्षितः. यस्, सो ईज् महिषी ओन्ली द वैफ् आफ् किङ्ग्, नाट् एनी वैफ्? यस्, सो महिषी इत्यस्य तत्र पट्टाभिषेकः यस्याः जातः सा एव महिषी. सो इट् इस् यूस्ड् इन् काण्टेक्स्ट् वित् द क्वीन्, नाट् जस्ट् वैफ्. एण्ड् ईस् द पट्टमहिषी बै डिफाल्ट् द एल्डेस्ट् वैफ्? यूजुवलि यस्, ऐ मीन् आल्वेस् प्रेसिडेन्स् फार् द एल्डर् वन्, बट् इट् कुड् बि डिफ्रेण्ट् डिपेण्डिङ्ग् आन् द किङ्ग्. सो कन्वेन्शनलि यस्, it should be. Agre gachhamaha. महनीय कीर्तेः प्रिया भगिनी
महनीय कीर्तेः इकारान्त स्त्रीलिङ्गः षष्ठी विभक्तिः एकवचनं
कस्य विशेषणम्
ओ दिलीपस्य विशेषणम् सो पुल्लिङ्गः भवति वा
आम्
कीर्तिः शब्दः पुल्लिङ्ग वा स्त्रीलिङ्ग वा कीर्तिः शब्दः
कीर्तिशब्दः स्त्रीलिङ्गे कः समासः
महनीय कीर्तिः यस्य सः
महनीया कीर्तिः यस्य सः ह्यः एव अस्य विषये श्रुतकीर्तिः इति चर्चां कृतवन्तः श्रुता कीर्तिः यस्य सः यस्याः उभयं भवितुमर्हति अत्र तु तस्य इति दिलीपस्य विशेषणम् अतः महनीया कीर्तिः यस्य सः बहुव्रीहिसमासः इकारान्तः पुल्लिङ्गः षष्ठी विभक्तौ एकवचनम् सप्त
सप्त नकारान्तः सप्तन शब्दः बहुवचनम्
नकारान्तः नित्यं बहुवचनान्तः स्टार्टिङ्ग् फ्रम् त्री all words all numbers are as in the next till 20 they are all nityam bahuvachanantah utah saptan iti nakarantah shabdah prathama vibhaktau bahuvachanam samyak agre vyatiyuh padmanabhan mohane
okay विधिलिङ्ग् बहुवचन प्रथमपुरुष बहुवचन
लिट्
लिट्
यस् बिकास् दे वेण्ट् बै पास्ट् टेन्स् भूतकालार्थ
ऐ थाट् इट्स् लैक् भवेयुः मेबि नाट्
इट् सौण्ड्स् लैक् दट् बट् अत्र किञ्चित् वि अति इति उपसर्गद्वयम् ईयुः इति धातुः इण् गतौ इति ई धातोः लिट् लकारे परस्मैपदे प्रथमपुरुष बहुवचनान्तं रूपं तत्र इयाय ईयतुः ईयुः इति लिट् लकारे रूपाणि वि अति इति उपसर्गे व्यतीयाय व्यतीयतुः व्यतीयुः इति भवति इण् गतौ इति धातुः एति इतः यन्ति गच्छति इत्यर्थः गतवन्ति इति दिनानि गतानि इति अर्थः भवति लिट्लकारः अग्रे त्रिगुणानि
त्रिगुणानि द्विगुसमास त्रीणि गुणानि त्रिगुणानि
नो दिस् इस् बहुव्रीहि वि विल् सी दट् फस्ट् द पद दान्तलिङ्ग
त्रिगुणानि
टोटल् द वर्ड् त्रिगुणानि विच् लिङ्ग विच् वचनं दिनानि इत्यस्य विशेषः
त्रिगुणानि नपुंसकलिङ्ग बहुवचनं
अकारान्तः
नपुंसकलिङ्ग
त्रयः गुणाः येषां तानि त्रिगुणानि इति विग्रहः अत्र गुणाः इत्युक्ते आवृत्तिः रिपिटिशन् इत्यर्थः सो त्रिगुणितं शतं त्रिशतम् इत्यादि अपि उच्यते गुणशब्दः इट् इस् यूस्ड् इन् इण्डियन् मेथमेटिक्स् फार् मल्टिप्लिकेशन् सो रिपिटिशन् आफ् त्रि सो त्री टैम्स् सेवेन् इत्यर्थः सो त्रयः गुणाः येषां तानि त्रिगुणानि इति बहुव्रीहिसमासः विशेषण फार् दिनानि सो इट् इस् गुणाकार भागाकार इस् मल्टिप्लिकेशन् अण्ड् डिविजन् इन् इण्डियन् मेथमेटिकल् काण्टेक्स्ट् तस्य
తత్ ప్రాతిపదికం పుల్లింగ విశేషణ విశేషణ క్వాలిఫైయర్ ఫర్ దిలీప తత్ ప్రాతిపదికం షష్టి ఏకవచనం
దకారాంతః పుల్లింగః తద్శబ్దః షష్ఠీ విభక్తౌ ఏకవచనం సమ్యక్ దినాని మహాలక్ష్మి భగిని
నమస్తే అకారాంతః నపుంసకలింగః ప్రథమా విభక్తి బహువచనం
అకారాంతః నపుంసకలింగః ప్రథమా విభక్తౌ బహువచనం ఘస్రో దినాహని వాతు క్లీబే దివసవాసరౌ ఇతి అమరః దినం ఇత్యస్య ఘస్రః ఇతి పుల్లింగే ఘస్రః ఇత్యుక్తే దినం దినం అహన్ ఇతి పదద్వయం నపుంసకలింగే దినం దినే దినాని అహన్ అహని అహాని ఇతి నకారాంతః శబ్దః నపుంసకలింగే దివసః వాసరః ఇతి పదద్వయమపి వాక్లీబే పుల్లింగే నపుంసకలింగే ఉభయథా అపి అస్తి అతః దివసాః దివసాని వాసరాః వాసరాణి ఉభయమపి అస్తి దినం ఇత్యర్థః అంతిమః శబ్దః దీనోద్ధరణోచి తస్య
అకారాంతః పుల్లింగః షష్ఠీ విభక్తి ఏకవచనం
అకారాంతః పుల్లింగః షష్ఠీ ఏకవచనం సమాసః
దీనోద్ధరణ దీనానాం ఉద్ధరణం
దీనానాం ఉద్ధరణం దీనోద్ధరణం
తత్పురుష షష్ఠీ తత్పురుషః ఉద్ధరణే ఉచితస్య
దీనోద్ధరణే ఉచితః తస్య ఇట్ ఇస్ లైక్ శాస్త్రే నిపుణః వ్యాకరణే పండితః సో తస్మిన్ అర్థే ఉచిత శబ్దః సో దీనోద్ధరణే ఉచితః సప్తమీ తత్పురుషః దీనానాం ఉద్ధరణం దీనోద్ధరణం దీనోద్ధరణే ఉచితః దీనోద్ధరణోచితః తస్య ఓకే సప్తమీ తత్పురుషః సమ్యక్ ఇత్తం వ్రతం ధారయతః ప్రజార్థం సమం మహిష్యా మహనీయ కీర్తేః సప్తవ్యతీయస్త్రిగుణాని సత్తస్య దినాని దీనోద్ధరణోచితస్య అత్ర అలంకారః విశిష్య కోపి నాస్తి సామాన్యతః అనుప్రాసః మహిష్యా సమం మహిష్యా మహనీయ కీర్తేః మకారః హకారః దకారః ఏవం వ్యంజనానాం ఆవృత్తిః అస్తి విశిష్య అర్థాలంకారః కోపి నాస్తి వృత్తం తు ఉపజాతిః ఇత్తం సప్త ఇతి ఉభయత్రాపి ఇంద్రవజ్ర స ది లఘు అస్తి అతః ఉపేంద్రవజ్ర ఇంద్రవజ్ర ఉపేంద్రవజ్రయోః మిశ్రణం ఉపజాతిః వృత్తం వ్యాఖ్యానే విశేషాంశాః కేపి న సంతి అతః అయం శ్లోకః అవగతః స్యాత్ ప్రశ్నాః ద్విత్రాః ప్రశ్నాః సంతి మహనీయ ఇతి తద్ధితాంతః వా ఇతి న కృదంత శబ్దః యథా పూజనీయ ఇత్యేవ అర్థః మహ పూజాయాం పూజార్థకః మహ్యతే పూజ్యతే సో పూజయితుం యోగ్యః ఇత్యర్థః మహనీయ ఇతి అనీయర్ కృదంత శబ్దః సంఖ్యా అస్తి చేత్ ద్విగు సమాసః కిల ఇతి ఐ థింక్ ఐ డిస్కస్ దిస్ ఇన్ ద ద్విగు సమాస క్లాస్ ఎత్ర ఎత్ర సంఖ్యా తత్ర సర్వత్ర ద్విగు సమాసః ఇతి నాస్తి యత్ర సమాహారార్థః అథవా అర్థ విశేషః అస్తి తత్రైవ ద్విగు సమాసః అన్యత్ర అన్యే సమాసాః అపి భవంతి సో ఇట్ ఇస్ ప్యూర్లీ బేస్డ్ ఆన్ ద మీనింగ్ ఇట్ ఇస్ నాట్ నెససరీ దట్ వెర్ ఎవర్ దెర్ ఇస్ నంబర్ ఇట్ హ్యాస్ టు బి ద్విగు అత్ర బహువ్రీహి సమాసః త్రయః గుణాః యస్య త్రిగుణా త్రిగుణం త్రిగుణాని ఏషాం తాని త్రిగుణాని ఇతి అగ్రే గచ్చామః అగ్రిమః శ్లోకః అపి సో వి విల్ టేక్ అ ఫ్యూ మోర్ మినిట్స్ అండ్ వి విల్ ఫినిష్ దిస్ బికాస్ వి ఆర్ రన్నింగ్ క్వైట్ బిహైండ్ షెడ్యూల్ అన్యే ద్యురాత్మానుచరస్య భావం जिज्ञासमाना मुनिहोमधेनुः गंगा प्रपातांत विरूढ शष्पम् गौरी गुरोर्गह्वरमा विवेश. महालक्ष्मी भगिनी. अन्येद्युरात्मानुचरस्य भावम् जिज्ञासमाना मुनिहोमधेनुः
जिज्ञासमाना मुनिहोमधेनुः गंगा प्रपातांत विरूढ शब्दम् शष्पम्
गौरी गुरोर्गह्वरमाविवेश
गौरी गुरोर्गह्वरमाविवेश.
पुनः पठतु.
अन्ये दुरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः गंगा प्रपातान्तविरूढशष्पं गौरी गुरोर्गह्वरमाविवेश
माविवेश. पदच्छेदः.
अन्येद्युः आत्मानुचरस्य भावं जिज्ञासमाना मुनिहोम धेनुः गंगा प्रपातान् प्रपात अंत विरूढ शष्पम् गौरी गुरोः गह्वरम् आविवेश.
अन्येद्युः आत्मानुचरस्य भावं जिज्ञासमाना मुनि होम धेनुः गंगा प्रपात अंत विरूढ शष्पम् गंगा प्रपातांत विरूढ शष्पम् इति एकमेव पदम् गौरी गुरोः गह्वरम् आविवेश. सन्धिः कुत्र कुत्र अस्ति?
गौरी गुरोः निसर्गरेपः.
अत्र आत्मा अनुचरस्य कः सन्धिः? सवर्णदीर्घः. प्रपात अन्त
सवर्णदीर्घः.
तत्रापि सवर्णदीर्घसन्धिः. आत्मा अन्येद्युः आत्मा तत्रापि रेफः विसर्गस्य. अन्येद्युरात्मा एवं गौरीगुरोर्गह्वरम् उभयत्रापि विसर्गस्य रेफः. आत्मानुचरस्य प्रपातान्त उभयत्रापि सवर्णदीर्घसन्धिः. भावं जिज्ञासमाना तत्र अनुस्वारसन्धिः. एवं शष्पं गौरीगुरोः अनुस्वारसन्धिः. अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरमाविवेश. कः अर्थः इति चेत् परेद्युः द्वाविंशे दिने, सो 21 डेज़् वेण्ट् बै, आन् द 22nd डे मुनिहोमधेनुः नन्दिनी आत्मानुचरस्य भावं जिज्ञासमाना. शी वाण्टेड् टु टेस्ट् दिलीप, टेस्ट् हिस् डिवोशन्, टेस्ट् हिस् फर्म्नेस् इन् सर्विङ्ग् हर्. सो सेवां कुर्वतः दिलीपस्य परीक्षां कर्तुं गौरीगुरोर्गह्वरम् आविवेश. गौरीगुरुः हिमालयः, हिमालये एकां गुहां प्राविशत्, गुहामेकां प्रविष्टवती इत्यर्थः. दिलीपस्य भक्तेः परीक्षां कर्तुं नन्दिनी वने गुहामेकां प्रविष्टवती इति सामान्यार्थः. तत्र वाक्यविश्लेषणम्. उमा भगिनी you have to unmute yourself ha
अनेद्युहो अव्ययम् प्रथमा विभक्ति मुनीर होम धेनुः विज्ञासमम्
क्रियापदम् क्रियापदम् किम् हरि ओम् न श्रूयते आविवेश आविवेश इति क्रियापदं प्रथमा विभक्तौ जिज्ञासमाना मुनिहोम धेनुः द्वितीया
भावं गंगा प्रपादांत विरुद्ध शष्पं
गह्वरं भावं गंगा प्रपातांत विरुद्ध शष्पं गह्वरं इति द्वितीया विभक्तिः
षष्ठी विभक्तिः आत्मानुसरस्य गौरी गुरोः
सम्यक् षष्ठी विभक्तिः आत्मानुचरस्य गौरी गुरोः अव्ययम्
अव्ययम् अन्येद्युः
अन्येद्युः इति अव्ययम् तावदेव सम्यक् अन्वयः प्रयत्नं करोति वा
आविवेश का आविवेश मुनीर होम धेनुः कीदृशं मुनि गौधेनुः
कीदृशी मुनिहोम धेनुः
जिज्ञासमाना
जिज्ञासमाना सम्यक्
कस्य जिज्ञासमाना भावं जिज्ञासमाना कस्य भावम् आत्मानुसरस्य भावम्
सम्यक्
किं कम् आविवेश गह्वरम् आविवेश
उत्तमम्
कस्य गह्वरं गौरीगुरोः गह्वरं
कीदृशं
गङ्गाप्रभादन्त विरुडशष्पम्
अन्तिमम्
कदा आविवेश
सम्यक् कदा आविवेश
अन्येद्युः
आविवेश उत्तमं सम्यक् सो आविवेश प्राविशत् प्रविष्टवती इत्यर्थः का आविवेश मुनिहोमधेनुः मुनेः वसिष्ठस्य होमधेनुः यज्ञकार्ये उपकर्त्री नन्दिनी आविवेश प्राविशत् कीदृशी मुनिहोमधेनुः जिज्ञासमाना ज्ञातुम् इच्छन्ति वाण्टिङ्ग् टु नो किं जिज्ञासमाना भावम् अभिप्रायम् भाव लिटरलि मीन्स् द इण्टेन्शन् इन् दिस् काण्टेक्स्ट् भक्तेः दार्ढ्यम् द स्टेड्फास्ट्नेस् आफ् हिस् डिवोशन् सो भावं जिज्ञासमाना कस्य भावं जिज्ञासमाना आत्मानुचरस्य आत्मनः स्वस्याः सेवायां निरतस्य दिलीपस्य भावं ज्ञातुम् इच्छन्ति नन्दिनी आविवेश किम् आविवेश गह्वरं गह्वरम् इत्युक्ते गुहा केव् इत्यर्थः शी एण्टर्ड् अ केव् कस्य गह्वरं गौरीगुरोः गौर्याः गुरुः पार्वत्याः पिता हिमालयः हिमालयस्य काञ्चित् गुहां प्रविष्टवती कीदृशमासीत् तद्गह्वरं गङ्गाप्रपातान्तविरूढशष्पं गङ्गायाः प्रपातः प्रपातः जलपातः वेर् देर् इस् अ वाटर्फाल् सो देर् इस् अ वाटर्फाल् आफ् द गाञ्जस् तस्य अन्ते समीपे विरूढशष्पं शष्पं नाम बालतृणं So freshly grown grass is called shashpa. So virudha, nutanataya prarudhaihi balatrinaihi yuktam. Ganga jalapatasya samipe nutanataya tatra trinani, because of the water, the flow of the Ganges, there is freshly grown grass in that cave. So she entered such a cave in the Himalayas. So Gangayaha Jalapatasya Samipe Nutanataya Prarudhaihi Balatrinaihi Yuktam Gahvaram Avivesha. So she entered a cave of the Himalayas in which there was fresh grass growing near a fall, waterfall of the Ganges. Ganga prapatanta virudha shashpam gauri guroho gahvaram avivesha. Kada anyedyuhu paredyuhu, the next day, sapta trigunani dinani vyatiyuhu anyedyuhu, the next day ityartha dvavimshe dine iti. Atra anvayaha atyantam saralaha, there is nothing for anvaya. I mean, the shloka itself is in the same order. So, anyedyuhu atmanucharasya bhavam jigyasamana muniho madhenuhu ganga prapatanta virudha shashpam gauri guroho gahvaram avivesha iti anvayaha. Kahartaha, the next day, Nandini, the homadhenu of Vasishtha, she wanted to know the dedication of her follower, that is Dilipa, and therefore she entered a cave in the Himalayas which had fresh grass growing near a waterfall of the Ganga. Okay. Paredyuhu swasyaha sevayam niratasya Dilipasya bhaktehe dardhyam gyatum icchanti. Nandini gangayaha jalapatasya samipe nutanataya prarudhaihi balatrinaihi yuktam himalayasya guham pravishat. Anye dyuratmanucharasya bhavam jignyasamana muniho madhenuh ganga prapatanta virudha shashpam gauri guror gahvaram avivesha. Anyedyuhu is used in both days. It can also mean another day or the next day, especially in a very clear context like this. When he says 21 days have passed, anyedyuhu immediately means the next day. Okay. So anyedyuhu, itaredyuhu, paredyuhu, all of them, they are used in both sentences. It is an avyaya. There is a series of these words. Aparedyuhu, anyedyuhu, itaredyuhu, etc. They are all avyayas given by a specific vyakarana sutra itself, which is there, which gives all these ready-made words. So you don't need to look at a nishpatti for it. The dyu everywhere stands for the day. Okay, like from adya. So you have all these words. So atratu parasmindine ityeva arthaha. अग्रे व्याकरणांशाः ये वक्तुम् इच्छन्ति कृपया हस्तम् उन्नयन्तु. अन्येद्युः अन्येद्युः मया अधुना एव उक्तम् अव्ययम्. अग्रे गच्छामः. आत्मानुचरस्य महादेवन् महोदय.
नमस्ते. आत्मानुचरस्य अकारान्त पुल्लिङ्गः षष्ठी विभक्ति एकवचनम्. आत्मनः आत्मनः अनुचरः आत्मानुचरः.
सम्यक्.
षष्ठीतत्पुरुषः.
आम्. आत्मानुचरस्य अकारान्तः पुल्लिङ्गः षष्ठी विभक्तौ एकवचनम्. आत्मनः अनुचरः आत्मानुचरः तस्य षष्ठी तत्पुरुषसमासः. सम्यक्. भावम्
भावम् पुल्लिङ्गशब्दः अकारान्तः द्वितीयविभक्त्येकवचनम्
अकारान्तः पुल्लिङ्गः द्वितीयाविभक्तौ एकवचनं सम्यक् जिज्ञासमाना
जिज्ञासमाना ऐ थिंक इट्स शानच् ज्ञातुम् इच्छा जिज्ञासा जिज्ञासा अस्य अस्ति इति अस्याः अस्ति इति जिज्ञासमाना इति वा
जिज्ञासते इति इट्स जस्ट लाइक पठितुम् इच्छति पठिष्यति सो जिज्ञातुम् इच्छति जिज्ञासते तस्य शानच् द धातु द वर्ड द लिंगवचन
प्रथमा विभक्ति एकवचनम् स्त्रीलिङ्गशब्दः आकारान्तः
आकारान्तः स्त्रीलिङ्गः प्रथमा विभक्तौ एकवचनम् सो ज्ञातुम् इच्छति जिज्ञासते ज्ञा धातोः सन् इति प्रत्ययः तस्मात् शानच् प्रत्ययः कृदन्तः ओके सो लैक् यु हाव् पठ् अण्ड् शानच् और् रदर् वन्द् अण्ड् शानच् बिकम्स् वन्दमानः सो जिज्ञास इति सन्नन्तः धातुः सो सन् इस् अ प्रत्यय विच् इस् आडेड् टु आल् धातुस् इन् द सेन्स् आफ् डिसैरिङ्ग् टु डु सो पठितुम् इच्छति पिपठिषति गन्तुम् इच्छति जिगमिषति एट्सेट्रा सो दट् प्रत्यय इस् काल्ड् सन् सो ज्ञातुम् इच्छन्त्याः इत्यर्थः शानच् प्रत्ययान्तः शब्दः अग्रे महादेवन् डि महोदय मुनिहोमधेनुः
नमस्ते मान्ये मुनिहोमधेनुः शब्द धेनुः स्त्रीलिङ्गशब्दः स्त्रीलिङ्ग एकवचनं स्त्रीलिङ्ग एकवचनं प्रथमाविभक्ति
उकारान्तः स्त्रीलिङ्गः
स्त्रीलिङ्गः
विभक्तौ एकवचन
शब्दः
समासः
समासः मुनेः होमधेनुः मुनेः हेमधेनुः अतः षष्टि तत्पुरुषसमासः
होमधेनुः
होमधेनुः होमधेनुः होमस्य धेनुः षष्टि तत्पुरुषः एव
सम्यक् उभयत्रापि षष्ठी तत्पुरुषः होमस्य धेनुः होमधेनुः मुनेः होमधेनुः मुनिहोमधेनुः षष्ठी तत्पुरुषः सम्यक् अत्र होमप्रयोजिका धेनुः इत्यादि मध्यमपदलोपः अपि कर्तुं शक्यते सो बिकास् इट् मीन्स् अ कौ विच् इस् यूस्फुल् और् हेल्प्फुल् इन् पर्फार्मिङ्ग् होम होमप्रयोजिका धेनुः इत्यादि मध्यमपदलोपः अपि कर्तुं शक्यते होमस्य धेनुः इति षष्ठी तत्पुरुषः अपि वक्तुं शक्यते उभयथापि दोषः नास्ति गङ्गाप्रपातान्तविरूढशष्पम् रामानुजं महोदय
नमस्ते गङ्गाप्रपातान्तविरूढशष्पम् अकारान्तः नपुंसकलिङ्गः एकवचनं द्वितीयाविभक्ति
अकारान्तः नपुंसकलिङ्गः गह्वरम् इत्यस्य विशेषणम् अतः नपुंसकलिङ्गः द्वितीयाविभक्तौ एकवचनम् समासः
गङ्गाप्रपात गङ्गाप्रपात गङ्गां प्रपात
प्रपातः इस् अ फाल् वाटर् फाल् आफ् द गाञ्जस्
सो गङ्गायाः प्रपात
गङ्गायाः प्रपातः
प्रपातः प्रपात अन्त सो प्रपातस्य अन्तः
గంగా ప్రపాతస్య అంతః.
అంత విరూడ, అంతే విరూడ సద్ది
సమ్యక్. ఆమాం ఆమ్ గంగా ప్రపాతాంతే విరూఢం,
విరూఢం విరూఢం శష్పం.
హౌ టు టేక్ ఇట్ టు గుహ? నౌ సీ, విరూఢ ఇస్ గ్రోయింగ్, శష్ప ఇస్ గ్రాస్.
ఓకే,
బట్ ద హోల్ వర్డ్ ఇస్ అ విశేషణ టు ద కేవ్.
ఓకే ఓకే, హోల్ వర్డ్ ఇస్ విశేషణ. ఓకే, విరూఢ విరూఢం శష్పం,
విరూఢం శష్పం.
యస్య సః,
యస్మిన్ తత్, సో ఇన్ ద కేవ్ దేర్ ఇస్ గ్రాస్ గ్రోయింగ్. ఓకే
ఓకే ఓకే,
ఆల్వేస్ ఫార్ బహువ్రీహి వి జస్ట్ సీ వాట్ ఇస్ ద రిలేషన్. యు హావ్ అ కేవ్, ఇన్ దట్ ద గ్రాస్ ఇస్ గ్రోయింగ్. అతః విరూఢాని శష్పాణి యస్మిన్ తత్
తత్. ఓకే,
సో గంగాయాః ప్రపాతః, గంగా ప్రపాతః షష్ఠీ తత్పురుషః, గంగా ప్రపాతస్య అంతః పునః షష్ఠీ తత్పురుషః. అత్ర అంత శబ్దస్య సమీపం ఇత్యర్థః. సో సమీపే విరూఢాని, గంగాప్రపాతాంతే విరూఢాని సప్తమీ తత్పురుషః, గంగాప్రపాతాంత విరూఢాని శష్పాణి యస్మిన్ తత్ గహ్వరం. సో దెన్ ఇట్ విల్ గో టు ద కేవ్. గంగాప్రపాతాంత విరూఢ శష్పం గహ్వరం ఇత్యర్థః. సమ్యక్. సో తత్ర శష్పం బాలతృణం ఘాసః ఇది అమరకోశే అస్తి. సో బాలతృణం, యంగ్ గ్రాస్, ఫ్రెష్ గ్రాస్ ఇస్ కాల్డ్ శష్ప, దట్ విచ్ ద కౌస్ లైక్ వెరీ మచ్ టు ఈట్. ఓకే, సో ద లాస్ట్ వన్, ఎనీబడి? సో మహాలక్ష్మి భగిని, గౌరీ గురోః.
ఉపారాంత శబ్ద పుల్లింగ షష్ఠీ విభక్తౌ ఏకవచనం.
ఉకారాంత పుల్లింగ గౌరీ గురు షష్ఠీ విభక్తౌ ఏకవచనం. సమాసః
గౌర్యాః గురుః, గౌరీ గురుః షష్ఠీ తత్పురుషః.
గౌర్యాః గురుః గౌరీ గురుః తస్య గౌరీ గురోః షష్ఠీ తత్పురుష సమాసః. సమ్యక్. గురు శబ్దః, సో ఇట్ ఇస్ యూజ్డ్ ఫర్ ఎల్డర్స్, స్పెసిఫికలీ ఫర్ పితుః గురు శబ్దః అస్తేవ. అతః గౌర్యాః పితా ఇత్యర్థః అత్ర వివక్షితః. గహ్వరం
అకారాంత నపుంసకలింగః ద్వితీయ విభక్తౌ ఏకవచనం.
సమ్యక్. అకారాంత నపుంసకలింగః ద్వితీయ విభక్తౌ ఏకవచనం. గహ్వరం దేవఖాత బిలే గుహా గహ్వరం ఇతి అమరః. సో దేవఖాతః బిలం, దేవఖాతం బిలం గుహా గహ్వరం ఇతి పర్యాయ పదాని. ఆవివేశ
విష్ ధాతుః పరస్మైపది ప్రథమపక్ష ఏకవచనం భూతకాల.
లకారః
లిట్,
లిట్ లకారః. ఆ వివేశ విష ధాతుః లిట్ లకారే పరస్మైపదే ప్రథమపురుషే ఏకవచనం. సో విష ప్రవేశనే, విష్ ఇస్ టు ఎంటర్. సో వివేశ వివిషతుః వివిషుః ఇతి పద రూపాణి భవంతి. ధన్యవాదాః. అన్యే ద్యురాత్మానుచరస్య భావం జిజ్ఞాసమానా మునిహోమధేనుః గంగా ప్రపాతాంత విరూఢ శష్పం గౌరీ గురోర్గహ్వరమావివేశ. తత్ర ఇంద్రవజ్ర వృత్తం, సర్వత్ర ప్రథమం, ప్రథమః గురు వర్ణః అస్తి, అతః ఇంద్రవజ్ర వృత్తం భవతి. ఏవంచ అద్య శ్లోకద్వయస్య అర్థం జ్ఞాతవంతః. ఇత్థం వ్రతం ధారయతః ప్రజార్థం సమం మహిష్యా మహనీయ కీర్తేః సప్తవ్యతీయస్త్రిగుణాని తస్య దినాని దీనోద్ధరణోచితస్య. దిలీపః నందిన్యాః సేవాం కృతవాన్, తత్ర ఏకవింశతిః దినాని గతాని. అన్యే ద్యురాత్మానుచరస్య భావం జిజ్ఞాసమానా మునిహోమధేనుః గంగా ప్రపాతాంత విరూఢ శష్పం गौरी गुरोर्गह्वरमाविवेश. परस्मिन् दिने नन्दिनी दिलीपं परीक्षितुं हिमालयस्य काञ्चित् गुहां प्रविष्टवती इत्येतावत् ज्ञातवन्तः. अग्रिमवर्गे त्रिंशः श्लोकः, सो द 30th श्लोक इन् द सेकेण्ड् सर्ग, ततो मृगेन्द्रस्य मृगेन्द्रगामी इति. पुनः 33rd श्लोक, तमार्यगृह्यं निगृहीतधेनुः मनुष्यवाचामनुवंशकेतुम् इति. श्लोकद्वयस्य पूर्वावलोकनं कृत्वा आगच्छन्तु. सो प्लीज़ हेव् अ लुक् एट् इट् बिफोर् यु कम् सो दट् वी केन् गो थ्रू इट्. ऐ विल् आल्सो अप्लोड् अ डाक्युमेण्ट् विच् हेज़् आल् द श्लोकास् आफ़् द सेकेण्ड् सर्ग. सो तत्र नीलवर्णे चिह्नितानि पदा चिह्निताः श्लोकाः कोविद परीक्षार्थं निर्दिष्टाः सन्ति. ओके, सो दिस् इस् द एण्टैर् द्वितीय सर्ग, द मूल श्लोकास्. वाट् एवर् इस् इन् ब्लू इस् प्रिस्क्रैब्ड् फार् द एक्साम्. ओके, सो यु केन् रेफर् टु दिस् टु लुक् एट् विच् इस् द श्लोक नेक्स्ट्. And you can also have a look at the intermediate shlokas so that the story is complete. Okay, so we have 30 and 33 for the next class. Okay. In the fourth charana, it is Upendra Vajra. Gauri Guru. Gau is Guru. Right, so it is still Indra Vajra. Ga is Guru, Ganga. Jigyasamana, Ji is Guru because of the Sanyuktakshara. A is also Guru because of the Sanyuktakshara. So everywhere it is Guru, right? Ataha Indra Vajra. Okay. Any other questions? So Agrima Shukravasare, Samasa Vargasya Anvartanam Kurma. वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो. धन्यवादाः.